ஓம் சிவாய நம. டியர் லிசனர்ஸ் ஆஃப் சைவம் .org, தி நெக்ஸ்ட் ப்ரோக்ராம் இஸ் புராண பாராயணம். இன் திஸ் யூ ஆர் அபவுட் டு லிசன் ஸ்கந்த மகாபுராணம். த டைட்டில் இஸ் மாகேஸ்வர காண்டம் பார்ட் 3 உத்தரார்த்தம். தேங்க்யூ. ஓம் சிவாய நம.
அத ஏகவிம்சதிதமோத்யாயஹ. நந்திகேசர உவாச, ததா ப்ரஹ்மா சரஸ்வத்யா மஹாவிஷ்ணுஶ்ச பத்மயா சக்ரபுலோமசுதயா பரே திக்பாலகாஃ அபி கந்தர்வாப்சரஸா சங்கா வசவோபி சுராஃ அபி த்ரயஸ்த்ரிம்ஷத் கோடி கணாஃ பரே முனிகணாஃ அபி ஏகாதஶ மஹாருத்ரா ஆதித்யா த்வாதஶாபி ச ஐரவாஶ்ச பிசாசாஶ்ச வேதாளா கடபூதனாஃ யக்ஷரக்ஷோரகா பூதா யே சான்யே சிவ கிங்கராஃ சந்தோஷபாஜஃ சர்வேபி விகடாகார வேஷ்டிதாஃ பரிவார்ய மஹேஷானம் சமாஜக்முஃ சஹஸ்ரஷஃ தத்வீராசம்சனம் த்ருஷ்ட்வா யோகினீ தானவைஃ க்ருதம் அதீவ விஸ்மயம் பேஜுஹு சர்வே கல்பாந்த பீஷணம் க்ருத சாநித்யமாலோக்ய தேவமானந்தயந்த்யுமா சிரராத்ர ப்ரரூடாம் ச தத்வியோக வ்யதாம் ஜஹோ ரோமாஞ்சிதா கின்ன முகி வேபமானா கனஸ்தனி பாதாங்குலீஷு நயனே விநிவேஷயதி ஸ்ம ஸா ப்ருஷபாதவருஹ்யாத க்ருஹீத்வைநாம் கரே சிவஹ ஸ்மித ஶாரீர கண்டஶ்ரீ ப்ரணயேனைவ மப்ரவீத். சிவ உவாச, வ்யாகுலீ க்ரியதே தேவி கிமேவம் காரணம் வினா சர்வைராராதனீயேதி மயாபி கடிதோஞ்சலிஹ. கிம் ந வேத்ஸ்யாவயோரைக்யம் ஜோத்ஸ்னா சந்திரமசோரிவ அநாதிசித்தம் தேவேஷி தவேதம் மௌக்யமீதிருஷம் க்வேதம் ஶிரீஷமிருத்வங்கீ ஷரீரம் தே கிரீந்திரஜே தபஸ் சமாதயஶ்சேதி க்வ கர்க்கஶஜனோசிதாஃ நாராயணோஹம் லக்ஷ்மீஸ்த்வம் ப்ரஹ்மாஸ்மி த்வம் சரஸ்வதி வாருணீ த்வம் ஃபணீந்திரோஹம் ரோஹிணீ த்வமஹம் சசி ஸ்வாஹா த்வம் ஹவ்யவாஹோஹம் சூர்யோஹம் த்வம் சுவர்ச்சல ஜாஹ்னவீ த்வம் சமுத்ரோஹம் மேருரஸ்மி த்வமுர்வர புலோமஜா த்வம் சக்ரோஹம் த்வம் ரதிஷ்சித்த பூரஹம் புத்திஸ்த்வம் ராஜராஜோஹம் த்வம் ஷமாஹம் சமீரணஹ பாதோதிபோஹம் வீஜிஸ்த்வம் ப்ரகிருதிஸ்த்வம் புமானஹம் வித்யா த்வம் வேதிதவ்யோஹம் வாக்த்வமர்த்தோபி பார்வதி ஈஸ்வரோஹம் மதம் ஷாஸி த்வயைவாஜ்ஞாஸ்வரூபயா ஸ்ருஷ்டிஸ்தித்யுபசம்ஹார விதானானுக்ரஹேஸ்வரே நபேதோதஸ்த்வயா கார்யஹ ப்ருதஜ்ஜனவதாவயோஹ சித்ப்ரகாஷாத்மனோர்தேவி ஸ்வேச்சாத்ருதஶரீரயா வ்யாகுலீ குருஷேஷஸ்வத் வ்ருதைவேர்ஷ்யாயசேஹி மாம் த்ருஷ்டா ப்ரதிக்ரியா தஸ்ய க்ரியதே யாதுனா மயா இத்யுக்த்வேஷோ நிஷண்ணஸ்தாம் பார்ஷ்வதேஷேன்யவேஷயத் கௌரீம் ஸ்வகீய ஏவாங்கே கூஹமானாமிவ ஹ்ரியா அங்கத்வயம் தயோரைக்யம் அகாத் ப்ரேம்ணா ச லீனயோஹ அர்த்தத்வயமிவாஹ்நாய சந்நிகர்ஷோபலம்பத அர்த்தே கர்ப்பூரதவளம் அர்த்தே சிந்தூர பாடலம் தத்விசித்ரமபூதங்கம் சிவயோரேகதாம்கதம் அர்த்தே குண்டலதாமர்த்தே हारमध्ये तु कुञ्जिका अङ्गादर्थेन्दुचूडस्य वपुरर्थेन्दुकूलितम् एकनूपुरतातङ्क परिहार्यमनोहरम् एकपिङ्गलसद्रीजो गात्रमेकस्तनम् बभौ देव्यै दत्त्वा च धामार्थम् वामदेवो जगातताम् अवकाशोरुषो देवी मा भूरत परम् तव स्तन्यार्थिनम् गुहम् हित्वा यातासि तपसे यतः तदपीतस्तनी नाम निवासात्र ममान्तिके त्वामपीतस्तनीम् देवीम् शोणाद्रीशम् च मामपि जना सर्वे समाराध्य रमन्ताम् भोगमोक्षयोः इयम् त्वदंशजा देवी दुर्गा महिषसूदिनी अत्रैव सन्निधत्ताम् तु मन्त्रसिद्धिप्रदानृणाम् खड्गतीर्थमिदम् पुण्यम् सकृदेव निमज्जनान् सर्वरोगहरम् पुंसाम् अस्तु सर्वाखनाशनम् प्रवालगिरिनाथश्च देवोऽयम् पापनाशनः भक्तिश्रद्धावताम् नृणाम् भूयास्ताम् भूतये भृशम् अयम् च गौतमो देवी त्वदनुग्रहभाजनम् तपोऽनुरूपम् भजताम् लोकेष्वाचन्द्रतारकम् इमाश्च मातरः सप्त सप्तलोकैकमातरः अद्य प्रभृति कुर्वन्तु सान्निध्यम् जगताम् श्रियै शास्तारो भैरवाक्षेत्र पालका पटुका अपि अरुणक्षेत्र एवात्र नित्यम् कुर्वन्तु सन्निधिम् अत्राहमरुणक्षेत्रे निवासाम्यरुणाह्वयः त्वयाप्यरुणया देव्या स्थातव्यम् करणाद्रया ईप्सिनामरुणा देवौ सान्निध्यम् कुरुतो यतः तदस्मिन्नरुणक्षेत्रे सुलभा सर्वसिद्धयः इदम् कृतम् पर्वतराजपुत्र्या प्रसादनम् शोणगिरीश्वरस्य शृणोति यः सद्विषतो विधूय स्वर्गापवर्गौ सुलभावुपेयात् इति श्रीस्कान्दे महापुराणे एकाशीतिसहस्र्याम् संहितायाम् प्रथमे माहेश्वरखण्डे श्री अरुणाचलमाहात्म्ये उत्तरार्थे शिवकृतम् पार्वती प्रशंसनवर्णनम् नाम एकविंशतितमोऽध्यायः अथ द्वाविंशतितमोऽध्यायः मार्कण्डेय उवाच स्वामिन् नित्यशिवानन्द भगवन्नन्दिकेश्वर आह्लादितोऽस्मि शोणेश माहात्म्यसुधया त्वया कथम् वज्राङ्गदः पाण्ड्य राजशोणम् व्यतिक्रमम् चक्रे कथम् तद्भक्त्यैव प्राप्तवान् सम्पदम् पुनः कथम् विद्याधराधीशौ कान्तिशाली कलाधरौ दुर्वासशापनिर्विद्धा पवितौ शोणशम्भुना नन्दिकेश्वर उवाच दीर्घायुष्मत्वसाफल्यम् लब्धवांस्त्वं मृकण्डुज यदि यं स्थेयसि भक्ते भवतो भूतनायके वक्ष्ये वज्राङ्गदो दन्तम् वृत्तम् विद्याभृतोरपि यतो भून्महितो लोके शोणाद्रीश्वर वैभवः आसीद् वज्राङ्गदो नाम पुरा पाण्ड्येषु पार्थिव आस्ते यस्य भुजस्तम्भे वसुधासालभञ्जिका धार्मिको न्यायविज्ञाता गम्भीरो दक्षिणक्षमः शान्तो विनयवान् धीमान् एकदारव्रतः कृति శివ పూజార్చనరతః శ్రీమాన్ శీలవతాంబర పృథ్వీ మాసేతు కేదారా శశాసజిత శాత్రవః కదాచిన్ మృగయా వ్యాజాత్ సచరన్ సుతురంగమః అరుణాచల పర్యంతం కాంతారం సమగాహత సతత్ర బహళామోదం కంచిత్ కస్తూరికా మృగం దృష్ట్వా తమన్వక్తురగం ప్రావర్తయత కౌతుకాత్ సమృగోనుద్రుతస్తేన అభితశోణ పర్వతం ప్రాదక్షిణ్యాత్ పరీయాయ పపాత చ మనోజవః తతః స భగ్నసారోపీ రాజా చాతశ్రమశ్చరన్ పపాత వాహాద్విచ్ఛాయ క్షీణ పుణ్యైవ ద్యుతః అజ్ఞాత కారణేనైవం మాతంగేనేవ పీడితః నాజ్ఞాసి క్షణమాత్మానం రాజా గ్రహ గృహీతవన్ అచింతయచ్చ కోయం మే నిర్హేతు సత్వ విప్లవః క్వగత సహ్య కస్మాన్ మే ఉపవాహ్యస్తు రంగమః ఇది చింతాకులే తస్మిన్ తజ్ఞానేప్యపటీయసి తటిత్తటజటాలేవ సహసాద్యౌర దృశ్యత నిరీక్షమాణ ఏవాస్మిన్ హిత్వాతిర్యక్కళేవరం తూర్ణం తురంగసారంగౌ ఖేచరత్వముపాగతౌ కిరీటినౌ కుండలినౌ హారకేయూరధారిణౌ క్షౌమాంతరీయోత్తరీయౌ స్రగ్విణౌ చ విరేజతుః అవోచతాంచ నృపతిం ఆశ్చర్యాకృష్టమానసం హరంతావివదంతాంశు జాలైస్త్వస్యార్తిజం తమః రాజన్నలం విషాదేన శోణాద్రీశ ప్రభావతః ఏతాం జానీహి సంజాతాం నవాంనౌ చేదృశీం దశాం తదోవాచత్తయో కించిద్ ఆశ్వస్త ఇవ పార్థివః కృతాంజలిరభాషిష్ట తావుభౌ వినయాన్వితః కౌయువాం నిర్మితో యాభ్యాం అభిషంగో మమీదృశః భద్రౌ భణతమార్తానాం త్రాణం హి మహతాం గుణః ఇతి తేన కృతే ప్రశ్నే తమువాచ కళాధరః రాజానం జనితాశ్చర్యం నిర్దిష్ట కాంతిశాలినా అవేహి రాజన్నామాం హి పురా విద్యాధరేశ్వరౌ పరస్పరాది సౌహార్దౌ వసంతమదనావివ ఏకదా తు సువర్ణాద్రే పార్శ్వే దుర్వాస సోమునే తపోవనమగచ్చావ మనసోపి దురాసదం క్రోషేద్ధం తపసస్తస్య శివారాధన సాధనీం పుష్పోజ్వలామపశ్యావ పుణ్యామారామ వాటికాం వినీతావప్య సంజాతౌ తత్వోచిత సుధీగణౌ ప్రావిశావతదుద్యానం ప్రసూనావచయోత్సుకౌ తలస్య తస్య సౌహార్దాత్ కాంతిశాల్యతి గర్వితః సంచచారముహుపాద న్యాసైరాఖట్టయన్మహీం అహం తు తత్ర పుష్పాణాం గంధాతిశయమోహితః వికస్వరేషు పుష్పేషు న్యస్తహస్తో దురాశయః తతః శాండిల్యమూలస్థో వ్యాఘ్రచర్మాసనే స్థితః దుర్వాసాస్తపసాం రాశిర్జ్వలన్నివహుతాశనః అమర్షోత్కర్షనోరంధ్ర స్పందమానాథరచ్ఛదః కరాళభృకుటీబంధ సారాళిత విశాలభూః సరోషో భూతేజసాఠ్యో కర్మతంతుర విగ్రహః दहन्निव दृशा पश्यन् अभर्त्स यत नौ मुनिः आह पापौ प्रच्युताचारौ कौयुवामति गर्वितौ ज्वलतः कोपवन्निर्मे शलभत्वमुपागतौ तपोवनमिदं मत्कं पावनं भूतभावनं पादैर्न स्पृशतः क्वापि सूर्यचन्द्रमसावपि पुरवैरिसपर्याय पर्यायकमिदं वनं न स्पन्दतेऽत्र वातोऽपि न लिप्यन्तेऽत्र षट्पदाः तदैतत्पादसञ्चारैर्दूषयन्नेष पातकी हयो भवतु भूलोके परवाह्यत्वपीडितः अपराप्ययमत्युग्र पयत्वचलकन्दरे प्रसूनगन्धलोपाद्यो गन्धसारङ्गतां गतः इति तेनोग्ररोषेण शापवज्रे निपातिते तक्षणाद्विगलद्गर्वाम् आवां तं शरणं गतौ अभिधाय च तं देवम् आहिताङ्घ्रिपरिग्रहैः अमोघ एष त्वच्छाप तदस्यान्तो निवेद्यताम् अथातिदीनमनसाम् आवामालोक्य पार्थिव सानुग्रहोन्भून्मुनिराट् कारुण्यादतिशीतलः अभाषत च मैवाम्भो भवतो क्वापि दुर्धियोः शापस्य भविता शान्ति ररुणाद्रे प्रदक्षिणात् पुरा खलु पुरारादि रथ्यतिष्ठच्छुभां सभां पर्युपास्यत दिक्पालैरिन्द्रोपेन्द्रयमादिभिः तदा च देवदेवाय नन्दनारण्यदेवता उपायनीकृतवती फलं किमपि पाटलम् बाल्यात् कुतूहलाक्रान्तौ गजानन षडाननौ पितरं तदयाचेताम् लोभनीयतरं फलम् अथ तावदद्देवः तनयौ फलतर्षितौ गोपयित्वा फलं पाणि सम्पुटेन कुमारकौ इमां समस्तां पृथिवीं लोकालोकेन वेष्टिताम् यो वां प्रदक्षिणी कर्तुम् ईष्टे तस्मै ददाम्यहम् इत्युक्ते पार्वतीशेन स्मयमानमुखेन्दुना स्कन्दः प्रदक्षिणी कर्तुम् मेदिनीमुपचक्रमे लम्बोदरस्तु देवस्य शोणशैलाकृते पितुः प्रदक्षिणं ततः कृत्वा पुरस्तादेव तत्क्षणान् तद्दृष्ट्वा तस्य चातुर्यं हेरम्बायत्र्यम्बकः फलं विदीर्णमानस्मै प्रणयाक्रातमस्तकः अद्य प्रभृति सर्वेषां फलानामधिनायकः भवेत्यस्मै वरं दत्त्वा ह्येकदन्ताय शङ्करः बभाषे च सभास्तारान् सर्वानपि सुरासुरान् प्रसरद्दशनज्योत्स्ना कर्पूरीकृतमन्दिरः स्थावरोऽयं ममाकारः शोणाद्रिर्योऽस्य भक्तितः प्रदक्षिणां वितनुते समे सारूप्य भाग्भवेत् गिरे प्रदक्षिणेनास्य यस्य धत्तपदेरुजं स सम्राट् सकलोत्कृष्टं लभते शाश्वतं पदम् इति शासनतः शम्भोः शोणशैलप्रदक्षिणम् विधाय सर्वगीर्वाणा लेभिरे स्वं स्वभीप्सितम् युवामभिमदोद्भूत मालिन्यौ शिक्षितौ मया प्रदक्षिणेन शोनाद्रेये शापान्तो वां भविष्यति तिरश्चोरपि वां सिद्ध्येत् अरुणाद्रे प्रदक्षिणा वज्राङ्गदस्य पाण्ड्यस्य नृपतेरनुबन्धतः इत्यमर्षणमहर्षि महान्ते शापहालहलशोषितगात्रौ पातितौ बहुलपातकभारात् क्षिप्रमश्वमृगजातिषु जातौ। इति श्रीस्कान्दे महापुराणे एकाशीतिसहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे श्री अरुणाचलमाहात्म्ये उत्तरार्धे अरुणाचलप्रदक्षिणमाहात्म्ये वज्राङ्गदवृत्तान्तवर्णनं नाम द्वाविंशतितमोऽध्यायः। अथ त्रयोविंशतितमोऽध्यायः। कलाधर उवाच काम्भोजेषु हयो भूत्वा कान्तिशाली सुहृन्मम अयासीदौपवाह्यत्वम् भवतो राजपुङ्गव अहं च गन्धमृगतां गतस्वाङ्गप्रसूतिना सुगन्धिनामदेनास्य सञ्चारं चाचरं गिरेः धर्मात्मा मृगया व्याज दागतेन त्वयाधुना आवां शोणाद्रिनाथस्य प्रापितौ हि प्रदक्षिणां वाहारोहणदोषेण तवासीदीदृशी दशा पादप्रचारपुण्येन प्राप्तं नौ प्राक्तनं पदं राजेन्द्र तव सम्बन्धात् अस्मत्तिर्यक्त्वबन्धनात् मुक्ता वावां स्वकं धाम प्राप्तौ स्वस्त्यस्तु ते सदा इत्युदीर्यानजं धाम इयासन्तं कलाधरम् कान्तिशालिनं च राजा जगादरचिताञ्जलिः एवं युवां शोणशैलशङ्करस्य प्रभावतः शापार्णवं समुत्तीर्णो कथं मे पुनरुश्रयः भ्राम्यतीव मम स्वान्तम् आधाय तदवेक्षणम् निर्यान्तीव मम प्राणाः तत्र दैवं बलोत्तरम् कलाधरकान्तिशालिनावूचतुः अवतारय निस्तारम् कथयावतवास्पदम् समाहितेन मनसा निर्धूतनिखिलाधिना जगत्सर्गस्थितिध्वंस विधानानुग्रहेश्वरे अरुणाद्रीश्वरे चित्तम् निधेहि करुणानिधौ प्रत्यक्षितं त्वयेदानीम् अस्य देवस्य वैभवम् तिरश्चोरावयोरेतद् ईदृशत्वं वितन्वतः कुरु प्रदक्षिणां पाद चारी मृगमदादृतैः कल्हारै पूजयेशानं देवं मृगमदप्रियम् यावती तव सम्पत्ति तावतीमखिलां विभो प्राकार गोपुरागार नवीकाराय कल्पय अचिरादेव सिद्धिस्ते भविष्यति गरीयसि मनुमान्धातृनाभाग भगीरथवदाधिक। नन्दिकेशर उवाच इत्थं निशम्य च तयोर्निजमेव धाम विद्याभृतो सपदि संश्रुतयोर्नरेन्द्र निःसंशयेन मनसा निरतस्तदानीं भक्तिं बबन्ध भगवत्यरुणाद्रिनाथे। इति श्रीस्कान्दे महापुराणे एकाशीतिसहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे श्री अरुणाचलमाहात्म्ये उत्तरार्थे कलाधरकान्तिशालिवृत्तान्तवर्णनं नाम त्रयोविंशतितमोऽध्यायः। अथ चतुर्विंशतितमोऽध्यायः। मार्कण्डेय उवाच भगवन् भवमाहात्म्य रत्नाकरसुधाकरम् नन्दीशचित्रं चारित्रं श्रुतं विद्यापृतेर्द्वयोः कदा वज्राङ्गदः सिद्धः कथं देवमपूजयन् कथं चान्वग्रहात् प्रह्वं देवस्तमरुणेश्वरः। नन्दिगेश्वर उवाच निवर्तनेच्छां हित्वाथ नृपो निजपुरं प्रति तस्यैव पदपर्यन्ते स्वस्य वासमरोचयत् अथास्य महती सेना वाहमार्गानुसारिणी प्राप्ता शताङ्गमातङ्ग तुरङ्गपटसङ्कुल समदृश्यत भूपाल तादृशो धैर्यसागरः पुरोधो मन्त्रिसामन्त सेनापतिसुहृत्तमैः ततस्तामागताम् सेनाम् अवनीपतिरादृतः अरुणाद्रेश्च सीमाया बहिरेवन्यवेशयत् स्वकीयमखिलम् कोशम् देशानपि महाफलान् शोणाद्रिनाथपूजायै कल्पयामास भक्तिमान् गौतमस्याश्रमाभ्याशे स्वयं कृततपोवनः पुरोधोक्तः स सचिवः शिवार्चनरतोऽभवन् रत्नाङ्गदाख्यं तनयं स्थापयित्वा निजे पदे तत्प्रेषितैरपर्याप्तै शोणेशं पर्यतर्पयत् परितः शोणशैलस्य परिपूर्णजलाशयान् अग्रहारान् बहुफलान् ब्राह्मणेभ्योऽतिसृष्टवान् तेजसारुणनाथस्य ज्वलनस्तम्भरूपिणः धन्वप्रायेऽपि देशेऽस्मिन् दीर्घिका शतशो व्यथात् सौन्दर्यशालिनीरात्म परिवारपराङ्गना सेवार्थं शोणनाथस्य दत्तवान् दीर्घदर्शनः अथागतेनागस्त्येन लोपमुद्रासखेन सह अभ्यनन्द्यत शोणाद्री नाथपूजापरायणः प्रत्यहं नवतीर्थाख्ये सरसि स्नानमाचरन् पापनाशप्रवालेशौ प्रयत पर्यपूजयत् महिषासुरसंहार कारिणी मानवेश्वरः नित्यमाराधयामास दुर्गां दुर्गातिहारिणीं प्रतिक्षणं ब्रह्म विष्णु पूज्यस्य लिङ्गरूपिणः आदिदेवस्य विविधाः सपर्यापर्यकल्पयत् प्रत्युषस्युत्थितः स्नातः पादाभ्यामेव पार्थिवः जपन् पञ्चाक्षरी मन्त्रम् अकार्षीभिः प्रदक्षिणाम् पौर्णमास्याम् सकार्तिक्याम् पार्वतीवल्लभप्रियाम् महादीपोत्सवम् चक्रे महितम् भुवनत्रये सुगन्ध सारकल्हार कर्पूरजलपूरितैः सहस्रैः स्वर्णकुम्भानाम् अभ्यषिञ्जत्र्यम्बकम् प्रतिमासध्वजारोह पूर्वम् तीर्थोत्सवादिकम् त्रैलोक्याभ्यर्हितम् चक्रे रथारोहम् महोत्सवम् अङ्गम् प्रदक्षिणम् चास्य विदधे विशदाशयः योजनत्रितया याम व्यापिनः शोणभूभृतः अरुणाचलनाथेति करुणामृतसागरः अरुणाम्बासनाथेति तुष्टावच मुहुर्मुहुः संलिप्य विविधैर्द्रव्यैर्नित्यम् पञ्चामृतादिभिः आनर्चयद्गन्धसार पङ्कैकर्पूरपाण्डुरैः अपूजयत कल्हारैः श्रवन् मृगमदद्रवैः प्रातरारभ्य शोणाद्री नायकम् गणरूपिणम् इति वर्षत्रयम् तस्य वासिनो वरिवस्यय अरुणाद्रीश्वरस्तुष्टः प्रत्यक्षत्वमगाहत निहाराचलसङ्काशम् आरूढो वृषपुङ्गवम् अन्वगासीनया देव्या कृतगाढोपगोहनः ब्रह्मर्षिभिर्वसिष्ठाद्यैर् नारदाद्यैर्महर्षिभिः गणैर्निकुम्भकुम्भाद्यै क्रियमाणजयस्तुतिः करुणासिन्धुकल्लोलैः कमलावासवेश्मभिः कटाक्षपादैर्जगताम् कालुष्यमिव वारयन् दृष्ट्वा च देवदेवम् तम् अष्टाङ्गम् न्यस्य भूतले प्रणनामपरम् हृष्टो वज्राङ्गदमहीपतिः व्यज्ञापयच्च भूपालो मौलीकृतशताञ्जलिः क्षालयन्निव दन्तांशु जालैस्तत्पादपङ्कजे वज्राङ्गद उवाच देवेश यदहम् मोहात् बहुपातकसञ्चयम् अचारिषम् स एकोऽयम् क्षम्यताम् मे व्यतिक्रमः इति वादिनमत्यन्तम् दीनमेव दयानिधिः जगाद जगतीनाथो देवशोणाचलेश्वरः श्रीमहेश्वर उवाच मा भैषीर्वत्स भद्रम् ते सन्त्यष्टौ मम मूर्तयः ताः सर्वा सर्वजन्तूनाम् अत्यर्थपरिकल्पिताः पुरा पुरन्दरस्त्वम् हि कैलासशिखरे स्थितम् गन्वितो माम वामं स्थाः स्तम्भितश्च तदा मया क्षणम् गलितगर्वस्त्वम् स्तम्भनाव्रीडितस्तदा अयाचिष्ठा शिवज्ञान मखिलैश्वर्यकारणम् आदिष्टस्त्वम् मया वज्रिन् अवतीर्यावनिम् भवान् राजा वज्राङ्गतो भूत्वा लप्स्यसे मत्कृपामिति जातम् ततः प्रभावेण क्षेत्रमेतन्मदास्पदम् शिक्षितोऽतीव मुग्धस्त्वम् भक्तोऽसि च परम् मयि अधुनातिसपर्यापि त्वकृताभिरहर्निशम् परितुष्टोऽस्म्यहम् राजन् अतस्त्वाम् बोधयाम्यहम् खम् वायुरनलो वारि भूसूर्यशशिनौ पुमान् इति मन्मूर्तिभिर्विश्वम् भासते सचराचरम् कालो हि कालयाम्यर्थान् सत्त्वानत्वन एव च तत्त्वातीतः शिवश्चाहम् नमत्तोऽस्तीह किञ्चन अपर्यन्तचिदानन्द सिन्धोर्मे केचिदूर्मयः वेधो मुकुन्द रुद्रेन्द्र मुखानाहुरुदित्वराः वाणी लक्ष्मी क्षमा श्रद्धा प्रज्ञा स्वाहा स्वथादयः असङ्ख्येय महाशक्तेर्मम विसृष्टिशक्तयः इयम् मम महाशक्तिर्गौरी माया जगत्प्रसु अनयाच्छाद्यते विश्वम् शश्वद्विस्तार्यतेऽपि च शक्त्यानयान्वितः सर्ग रक्षा संहृति विभ्रमः विचित्रमेतत्पश्यामि जगच्चित्रम् निजेच्छया अपवाहितमोहस्त्वम् महिम्ना मे विचारय आत्मानमविभिन्नम् मे तरङ्गमिव वारिधेः ततो मद्रूपशालिन्या आधिपत्यम् क्षितेर्गतः मत्प्रसादेन राजेन्द्र पुंष्वभोगान् यथा सुखम् पुनः पुरन्दरत्वेन भुक्त दिव्यसुखश्चिरम् मदेकरूपताम् राजन् निश्चयत्वमवाप्स्यसि नन्दिकेश्वर उवाच इत्युक्तान्तर्हितम् देवे राजा वज्राङ्गदकृति शोणेशम् पूजयन्नेव सर्वान् भोगानवाप्तवान् इत्थम् ते कथितम् साधो शिवभक्तविजृम्भणम् प्रदक्षिणाफलम् चैव शोणशैलस्य शाश्वतम् किम् वाचाम् विस्तरेणात्र शोणशैल प्रदक्षिणा महतामश्वमेधानाम् शतादपि विशिष्यते विषुवायन संक्रांति व्यतिपातादिपर्वसु प्रदक्षिणाच्छोणगिरेः असङ्ख्येये फलम् लभेत् न क्षेत्रमरुणादस्ति नास्ति देवोरुणेश्वरात् नापि प्रदक्षिणादन्य विद्यतेऽप्यधिकम् तपः इति कथयति नन्दिकेश्वरेऽस्मिन् पुलकित सर्ववपुर्मृगण्डुपुत्र मुहुरधिगत हर्ष बाष्पवृष्टिर्महति निमग्न इवाभवत् सुधाब्धौ इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे श्री अरुणाचलमाहात्म्ये उत्तरार्थे वज्राङ्गद सद्गतिर्वर्णनम् नाम चतुर्विंशतितमोऽध्यायः इत्यरुणाचलमाहात्म्ये उत्तरार्थः समाप्तः इत्यरुणाचलमाहात्म्यम् सम्पूर्णम्।